इदम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधिः झाः। अथ वार्ताः। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः ह्यः राष्ट्रपतिभवने आयोजिते नागरिकालङ्करणसमारोहे षट्षष्टिः प्रमुखाग्रगण्यविभूतिभ्यः पद्मपुरस्कारान् प्रादात्। एतेषु द्वाभ्यां विभूतिभ्यां पद्मविभूषणं, षड्भ्यः पद्मभूषणं, सहैव अष्टपञ्चाशद्विभूतिभ्यः पद्मश्रीः प्रदत्ताः। कलाक्षेत्रे विशिष्टयोगदानार्थं सुप्रसिद्धः चलच्चित्र अभिनेता धर्मेन्द्रसिंह देओल महोदयः मृत्योपरान्तं पद्मविभूषणसम्मानेन अलङ्कृतः। अभिनेतुः भार्या हेमा मालिनी एतं पुरस्कारं स्वीकृतवती। प्रख्यातः भारतीय सारङ्गीवादकः डॉ. एन. राजम् अपि पद्मविभूषणसम्मानेन सुपूजितः। अस्मिन् अलङ्करणसमारोहे उपराष्ट्रपतिः सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयमन्त्री अमितशाहः, गजेन्द्रसिंहशेखावतः, HD कुमारस्वामी च उपस्थिताः आसन्। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः अद्य आरभ्य सिक्किम राज्यस्य त्रिदिवसात्मिकां यात्रां विधास्यति। सिक्किम प्रवासकाले सा विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति, अनेकानि स्थानानि च द्रक्ष्यति। राष्ट्रपति महोदया सायंकाले गंगटोक नगरे स्थिते नाइमनॉल इंस्टीट्यूट ऑफ टिबेटोलॉजी इति संस्थां प्रति गमिष्यति। सिक्किम सर्वकारेण तस्याः स्वागताय विपुलाः प्रबन्धाः विहिताः। विश्व स्वास्थ्य संघटनेन डेमोक्रेटिक रिपब्लिक ऑफ कांगो अथ युगांडा देशेषु इबोला संक्रमणं अन्ताराष्ट्रिय चिन्तायाः सार्वजनिक स्वास्थ्य आपातकालत्वेन घोषितम्। एतदनन्तरं नगर विमानन महादेशालयेन विमान विपणीनां कृते एका मानक संचालन प्रक्रिया प्रसारिता। अत्रावधेयास्पदं वर्तते यत् विमानेषु अनिवार्यरूपेण पदक्षेपाः विहितव्याः भविष्यन्ति। यथा इबोला संकटं दृष्ट्वा यदि कस्यापि यात्रिणः ज्वरः, दौर्बल्यं, पीडा, शिरोवेदना, कण्ठदाहः, वमनमित्यादीनि लक्षणानि दृश्यन्ते तर्हि सः सद्यः एव विमानकर्मचारिभ्यः आगमानन्तरं चिकित्साविभागेभ्यः सूचयेत्। महानिदेशालयेन स्पष्टीकृतं यत् भारते आगमनात् एकविंशतिदिनानां मध्ये यदि एतादृशानि लक्षणानि उत्पद्यन्ते तर्हि यात्रिणः निर्दिष्टचिकित्सालयेभ्यः चिकित्सासाहाय्यं प्राप्नुयुः। भारतीय ऋतुविज्ञानविभागेन अद्य यावत् मध्यप्रदेश, ओडिशा, तेलंगाना, उत्तरप्रदेश, विदर्भ क्षेत्रेषु उष्णस्थितिमुद्दिश्य रेड अलर्ट इति रक्तवर्णीय सञ्चेतना प्रसारिता। विभागेन आगामि द्वित्रिदिनेषु हरियाणा, चण्डीगढ़, दिल्ली, पंजाब, उत्तरप्रदेश, राजस्थान राज्येषु तीव्र उष्णतरंगस्य पूर्वसूचना प्रख्यापिता। एतादृशी एव स्थितिः अद्य यावत् छत्तीसगढ़, तटीय आन्ध्रप्रदेश, हिमाचलप्रदेश, जम्मू कश्मीर, लद्दाख, झारखण्ड, उत्तराखण्ड राज्येषु अपि भवितुं सम्भाव्यते। आयुष मंत्री प्रताप राव जाधवः अवदत् यत् सर्वकारः योग प्राकृतिक चिकित्सा माध्यमेन कृत्स्नेहि देशे निवारक स्वास्थ्य सेवाः सुदृढीकरोति। नवदिल्ल्याम् आयुष मंत्रालयस्य संसदीय परामर्शदात्री समित्याः चतुर्थ उपवेशने अध्यक्षतां कुर्वन् श्री जाधवः अवचत् यत् योगः, प्राकृतिक चिकित्सा च समग्र निवारक स्वास्थ्य सेवायै भारतस्य शाश्वतं योगदानं वर्तते। अस्मिन् उपवेशने भारते योग प्राकृतिक चिकित्सा क्षेत्रस्य विस्तारे, स्वास्थ्य संवर्धन सम्बद्धेषु प्रयासेषु च तथा च पारम्परिक चिकित्सा पद्धतीनां वैश्विक प्रसारे च विस्तरेण चर्चा अभवत्। सः अग्रे सूचितवान् यत् सम्प्रति विश्वस्य 90+ देशेषु अन्ताराष्ट्रिय योग दिवसः समारोहः आचर्यते। इति वार्ताः।